श्री गुरुभ्यो नमः हरिः ओम् यो देवानां प्रथमं पुरस्ताद्विश्वाधियो रुद्रो महर्षिः हिरण्यगर्भं पश्यत जायमानगं स नो देवः शुभया स्मृत्या संयुनक्तु यस्मात् परन्ना परमस्ति किञ्चिद्यस्मान्नानीयो न ज्यायोऽस्ति कश्चित् वृक्ष इव स्तब्ध दिवि तिष्ठत्येकस्ते नेदम् पूर्णम् पुरुषेण सर्वम् न कर्मण न प्रजया धने न त्यागे नैके अमृतत्वमानशुः परेण नाकन्निहितं गुहायां विभ्राजदेतद्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे दह्रं विपापं परमेष्म भूतं यत्पुण्डरीकं पुरमध्यसर्गस्थम् त्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वरः प्रोक्तो वेदा ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स महेश्वरः चरणं पवित्रम् त्रम्बिततम् पुराणम् येन पूतस्तरति दुष्कृतानि तेन पवित्रेण शुद्धेन पूताः अतिपाप्मानमरातिन्तरेम लोकस्य द्वारमर्चिमत्पवित्रम् ज्योतिष्मद्भ्राजमानं महस्वत् अमृतस्य धारा बहुधा दोहमानम् चरणन्नो लोके सुधितां दधातु दीर्घतमा मामते यो जुजुर्वां दशमे युगे अपामर्थ थैह्यतीनाम् ब्रह्मा भवति सारथिः ॐ हंस हंसाय विद्महे परम हंसाय धीमहि तन्नो हंसः प्रचोदयात् ॐ शान्ति शान्ति शान्तिः।